वक्त्रशी सरसी जले तरलित ब्रुवल्ली कलोलिते काळिना दधति कटाक्षजनुषा माधुरतिम्या प्रतिम निर्निद्रा मलपुण्डरीककुहना पाण्डित्यमाबिभ्रती कामाक्ष्याः स्मितचातुरी मम मनकातर्यम् उन्मूलयेत्। नित्यं बाधितबन्धुजीवमधरं मैत्रीजुषं पल्लवी शुद्धस्य द्विजमण्डलस्य च तिरस्कर्तारमप्याश्रिता मल्यवती सदैव नमतां चेतः पुनीतेतरां कामाक्ष्या हृदयं प्रसादयतु मे सामुदहास प्रभा। गृह्यन्ती तमसि मुहुः कुमुदिनी साहाय्यमभिभ्रती यान्ति चन्द्रकिशोरशेखरवपुः सौदाङ्गणे प्रेक्षणम् ज्ञानाम्बोनिधिवीचिकां सुमानसां कुलं कशां कुर्वती कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम्। काश्मीरद्रवदातु कर्तमरुचां कल्माषतां बिभ्रतीं हंसौघैरिव कुर्वति परिचितिं हारीकृतैर्मुक्तिकैः। वक्षोजल्मतुषारशीलकटके सञ्चारमातन्वती कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथि भासते। कम्बोर्वंशपरम्परा इव कृपा सन्तानवल्ली भुवः सम्पुल्लस्तभका इव प्रसृमरा मूर्ता प्रसादा इव वाक्पीयूषकणा इव त्रिपथगा पर्यायभेदा इव ब्राजल्ते तव मुल्दहासकिरणाः काञ्चीपुरीनायिके। वक्षोजे घनसारपत्ररचना भङ्गी सपत्नायिता कण्ठे मौक्तिकहारयष्टिकिरण व्यापारमुद्रायिता। ओष्ठश्रीनिकुरुम्बपल्लवपुटे प्रेङ्कट्प्रसूनायिता कामाक्षि स्फुरता मदीय हृदये त्वन्मन्दहासप्रभा। येषां बिन्दुरिवोपरि प्रचलितः नासाग्रमुक्ता मणिः येषां दीनैवाधिकण्ठमयते हारकरालम्बनम् येषां बल्दुरिवोष्टयोररुणिमा धत्ते स्वयं रञ्जनं कामाक्ष्यः प्रभवन्तु ते मम शिव उल्लासयः साङ्कुराः। या जाड्याम्बुनिधिं क्षिणोति भजतां वैरायते कैरवैः। नित्यं या नियमेन याचयत ते कर्तुं त्रिनेत्रोत्सवं बिम्बं चान्द्रमसं च वञ्चयति या गर्वेण सा तादृशी कामाक्षि स्मितमञ्जरी तव कथं योऽस्तेत्यसूकीर्त्यते। आरूढारभसात् पुरः पुररिपोः आश्लेषणोपक्रमे याते मातरूपैति दिव्यतटिनी शङ्काकरी तत्क्षणम् ओष्टौ वेपयति भ्रुवौ कुटिलयति आनम्रयत्याननं तामल्ल पुरसुषमाम् एकाम्रनाथ प्रिये। वक्त्रेन्दुस्तव चन्द्रिकास्मिततिः वल्गुस्फुरन्ते सतां। स्याच्चेत्युक्तमिदं चकोरमनसां कामाक्षि कौतूहलम्। एतच्चित्रम् अहर्निशं यदधिकां एषा रुचिं गाहते बिम्बोष्टद्युमणि प्रभा स्वपि च यत् दिव्योकमालम्बते।